अथ भगवद्ध्यानम् संचिन्तयेत् भगवतश्चरणारविन्दम् वज्रांकुशध्वजसरोरुहलाञ्छनाढ्यम् उत्तुङ्गरक्तविलसन्नखचक्रवाल ज्योत्स्नाभिराहतमहृदयान्धकारम् यच्छौच निःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्यधिधृतेन शिवशिवोऽभूत् ध्यातुर्मनःशमलशैलनिसृष्टवज्रम् ध्यायेच्चिरं भगवतश्चरणारविन्दम् ऊरुसुपर्णभुजयोरधिशोभमाना वोजोनिधि स्वतसिकाकुसुमावभासौ व्यालम्बिपीतवरवाससिवर्तमान काञ्चीकलापपरिरम्भिनितम्बमम्ब नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मं व्यूढं हरिन्मणिमुषस्तनयोरमुष्य ध्यायेद्वयं विततहारमयूखगौरम् वक्षोधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम् कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान् सञ्चिन्तयेद्दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम् कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद्भगवतो वदनारविन्दम् यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारहासम् यच्छ्रीनिकेतमलिभिः परिसेव्यमानम् भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् मीनद्वयश्रियमधिक्षिपदब्जनेत्रम् ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रू तस्यावलोकमधिकं कृपयाति घोर तापत्रयोपशमनाय निसृष्टमक्ष्णोः स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विततभावनया गुहायां हासं हरेरवनताखिललोकतीव्र शोकाश्रुसागरविशोषणमत्युदारम् सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मनुसुते मकरध्वजस्य ध्यानायनं ब्रहसि तद्बहुलाधरोष्ठ भासारुणायिततनुद्विजकुन्दपङ्क्ति ध्यायेत्स्वहृत्कुहरके वसितस्य विष्णोः भक्त्यार्द्रयार्पितमनान् पृथग्दिदृक्षेत् इति श्रीमद्भागवते तृतीयस्कन्धे एकोनत्रिंशाध्याये भगवद्ध्यानम्।